ಚಕ್ರದಂತಾಯ ವಕ್ರತುಂಡಾಯ ಗೌರೀತನಯಾಯ ಧೀಮಹಿ ಗಜೇಶಾನಾಯ ಭಾಲಚಂದ್ರಾಯ ಶ್ರೀ ಗಣೇಶಾಯ ಧೀಮಹಿ. ವಿಘ್ನ ವಿನಾಶಕಸ್ಯ ಮಂಗಲಸ್ವರೂಪಸ್ಯ ಚ ಭಗವತಃ ಶ್ರೀ ಗಣೇಶಸ್ಯ ಸ್ಮರಣೇನ ಭಾರತೀಯ ಪರಂಪರಾಯಾಂ ಸರ್ವೇಷಾಂ ಶುಭ ಕಾರ್ಯಾಣಾಂ ಆರಂಭಃ ಭವತಿ. ಅಯಿ ಗಣೇಶ ಭಕ್ತ್ಯಾ ಸಂಸ್ಕೃತ ಸೇವಯಾ ಚ ಸಮನ್ವಿತಃ ಸುಧಯ ಶ್ರೋತಾರಃ ಸಂಸ್ಕೃತ ಸಾಪ್ತಾಹಿಕೀ ಕಾರ್ಯಕ್ರಮಸ್ಯ ಅಸ್ಮಿನ್ ನವೀನಾಂಕೇ ಭವತಾಂ ಸರ್ವೇಷಾಂ ಸಾದರಂ ಸ್ವಾಗತಂ ಕರೋಮಿ ಇಯಮಹಂ ರಚಾ ಝಾ. ಶ್ರೋತಾರಃ ಆಗಚ್ಛಂತು. ಕಾರ್ಯಕ್ರಮಸ್ಯ ಶುಭಾರಂಭೇ ಸದಾಚಾರಸ್ಯ ಸಂದೇಶೇನ ಸಮನ್ವಿತಂ ಶ್ರೇಷ್ಠ ಜೀವನಾಯ ಪ್ರೇರಣಾಪ್ರದಂ ಚ ಸುಭಾಷಿತಂ ಶ್ರೂಯಂತಾಂ ತಚ್ಚ ಪ್ರಸ್ತೌತಿ ಮಮ ಸಹಯೋಗಿ ಪುನೀತ ತ್ರಿಪಾಠಿ.
ಮೋಕ್ಷೋ ವಿಷಯ ವೈರಸ್ಯಂ ಬಂಧೋ ವೈಷಯಿಕೋ ರಸಃ ಏತಾವದೇವ ವಿಜ್ಞಾನಂ ಯಥೇಚ್ಛಸಿ ತಥಾ ಕುರು. ಅರ್ಥಾತ್ ವಿಷಯೋ ಸೇ ಉದಾಸೀನ ಹೋನಾ ಮೋಕ್ಷ ಹೈ ಔರ್ ವಿಷಯೋ ಮೇ ರಸ ಲೇನಾ ಬಂಧನ್ ಹೈ. ಐಸಾ ಜಾನ್ತೆ ಹುವೆ ಮನುಷ್ಯ ಕೀ ಜೈಸಿ ಇಚ್ಛಾ ಹೋ ವೈಸಾ ಆಚರಣ ಕರ್ನಾ ಚಾಹಿಯೆ.
ಅಹೋ ಸಮೀಚೀನಂ. ಅಧುನಾ ಕ್ರಮೋ ವರ್ತತೆ ಪ್ರಸಂಗ ಪ್ರಭಾಗಸ್ಯ ಯತ್ರ ಮಮ ಸಹಯೋಗಿ ಜತನ ಶರ್ಮಾ ಶ್ರಾವಯತಿ ಗಣೇಶ ಭಕ್ತಿಭಾವ ಸಮನ್ವಿತಂ ಶ್ರೀ ಗಣೇಶ ಪಂಚರತ್ನಂ.
ಮುದಾಕರಾತ್ ಮೋದಕಂ ಸದಾ ವಿಮುಕ್ತಿ ಸಾಧಕಂ ಕಲಾಧರಾವತಂಸಕಂ ವಿಲಾಸಿ ಲೋಕ ರಕ್ಷಕಂ ಅನಾಯಕೈಕನಾಯಕಂ ವಿನಾಶಿತೇವ ದೈತ್ಯಕಂ ನತಾಶುಭಾಶು ನಾಶಕಂ ನಮಾಮಿ ತಂ ವಿನಾಯಕಂ. ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ಪಾಹಿ ಮಾಂ. ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ರಕ್ಷ ಮಾಂ. ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ಪಾಹಿ ಮಾಂ. ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ರಕ್ಷ ಮಾಂ. ನತೇತರಾತಿ ಭೀಕರಂ ನವೋದಿತಾರ್ಕ ಭಾಸ್ವರಂ ನಮತ್ಸುರಾರಿ ನಿರ್ಜರಂ ನತಾಧಿಕಾಪದುದ್ಧರಂ ಸುರೇಶ್ವರಂ ನಿಧೀಶ್ವರಂ ಗಜೇಶ್ವರಂ ಗಣೇಶ್ವರಂ ಮಹೇಶ್ವರಂ ತಮಾಶ್ರಯೇ ಪರಾತ್ಪರಂ ನಿರಂತರಂ. ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ಪಾಹಿ ಮಾಂ. ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ಜಯ ಗಣೇಶ ರಕ್ಷ ಮಾಂ.
ಇದಾನೀಂ ಕ್ರಮಃ ಗತ ಸಪ್ತಾಹಸ್ಯ ಪ್ರಮುಖ ವೃತ್ತಾಂತಾನಾಂ ದೇಶೆ ವಿದೇಶೆ ಚ ಘಟಿತಾನಾಂ ಮಹತ್ವಪೂರ್ಣ ಘಟನಾನಾಂ ಸಂಕ್ಷಿಪ್ತಂ ವಿವರಣಂ ಪ್ರಸ್ತೌತಿ ಸುರೇಶ ಚಂದ್ರ ಶರ್ಮಾ.
ಬ್ರಿಕ್ಸ್ ಶಿಖರ ಸಮ್ಮೇಳನಸ್ಯ ಅದ್ಯ ಅಂತಿಮಂ ದಿನಂ ಅವಧೇಯಂ ಯತ್ ಅಷ್ಟಾದಶಂ ಬ್ರಿಕ್ಸ್ ಶಿಖರ ಸಮ್ಮೇಳನಂ ನವದೆಹಲ್ಯಾಃ ಭಾರತ ಮಂಡಪಂ ಇತ್ಯತ್ರ ಸಮಾಯೋಜ್ಯತೆ ಯತ್ರ ರೂಸ್ ಚೀನ ದೇಶಂ ಸಮೇತ್ಯ ವೈಶ್ವಿಕ ನೇತಾರಃ ಭಾಗಂ ಭಜಂತಿ. ಏತಸ್ಯ ಬ್ರಿಕ್ಸ್ ಶಿಖರ ಸಮ್ಮೇಳನಸ್ಯ ಮೂಲ ವಿಷಯೋ ವರ್ತತೆ ನವಾಚಾರ ಸಹಕಾರ ಸ್ಥಿರತಾಯಶ್ಚ ಕೃತೆ ನಿರ್ಮಾಣಮಿತಿ. ಪ್ರಧಾನಮಂತ್ರಿ ನರೇಂದ್ರ ಮೋದಿ ಫ್ರಾನ್ಸ್ ದೇಶಸ್ಯ ಪೇರಿಸ್ ನಗರೆ ಸಮಾಯೋಜಿತಂ ಅಂತರಿಕ್ಷ ಸಮ್ಮೇಳನಂ ಆಭಾಸೀಯ ಮಾಧ್ಯಮೇನ ಸಂಬೋಧಿತವಾನ್. ಯತ್ರ ಪ್ರಧಾನಮಂತ್ರಿಣಾ ನರೇಂದ್ರ ಮೋದಿನಾ ಭಾರತೀಯ ಅಂತರಿಕ್ಷ ಅನುಸಂಧಾನ ಸಂಘಟನಂ ಪ್ರಶಂಸಿತಂ.
ಅಯಿ ಶ್ರೋತಾರಃ ಸಾರ್ಥಕಃ ಸಂವಾದಃ ಜ್ಞಾನವರ್ಧನಾಯ ನೂತನ ದೃಷ್ಟಿಃ ವಿಕಾಸಾಯ ಚ ಮಹತ್ವಪೂರ್ಣಂ ಸಾಧನಮಸ್ತಿ. ಅಧುನಾ ಜ್ಞಾನ ವಿಜ್ಞಾನ ಪ್ರಭಾಗೆ ಅಸ್ಮಾಕಂ ವಿಶಿಷ್ಟಾತಿಥಿಃ ಸಹಾಯಕಾಚಾರ್ಯ ಶ್ರೀ ಜ್ಞಾನ ಸಿಂಧು ಸಂಸ್ಕೃತಸ್ಯ ತದನುಬದ್ಧ ವಿಷಯಾಣಾಂಚ ವಿವಿಧ ಪಕ್ಷಾನ್ ಪ್ರಕಾಶಯಿಷ್ಯತಿ. ತಹಿ ಆಯಾಂತು ಶೃಣುಮಃ ಅದ್ಯತನಂ ಜ್ಞಾನವರ್ಧಕಂ ಸಂವಾದಂ. ಸಂವಾದಮೇತಂ ಪ್ರಸ್ತೌತಿ ಅಸ್ಮದೀಯಾ ಸಹಯೋಗಿನಿ ನಿಧಿಃ ಝಾ.
ಅಭಿವಾದಯೇ ಮೇ ಸಖಾಯಃ. ಅದ್ಯಾಸ್ಮಾಭಿಃ ಸಾಕಂ ಉಪತಿಷ್ಠಂತೆ ಶ್ರೀ ಜ್ಞಾನ ಸಿಂಧು ಮಹಾಭಾಗಾಃ. ಏತೇ ಕೇಂದ್ರೀಯ ಸಂಸ್ಕೃತ ವಿಶ್ವವಿದ್ಯಾಲಯಸ್ಯ ಭೋಪಾಲ ಪರಿಸರೇ ಸಾಹಿತ್ಯ ವಿದ್ಯಾಶಾಖಾಯಾಂ ಆಚಾರ್ಯಾಃ ಇತಿ ಗರಿಮಾಮಯಂ ಪದಂ ಅಲಂಕುರುವಂತಿ. ವೈದುಷ್ಯಂ ಕಾವ್ಯ ನಿರ್ಮಾಣಮಿತಿ ನವ ನವೋನ್ಮೇಷ ಶಾಲಿನ್ಯ ಪ್ರಜ್ಞಯಾ ಸಮನ್ವಿತಾಃ ಇಮೇ ದಾರ್ಶನಿಕಾಃ साहित्यतत्त्वमर्मज्ञाश्च वर्तन्ते। महोदयानां प्रणतिपुरस्सरम् इयमहं निधिः झाः स्वागतं निवेदयामि। आदौ तावत् प्रथमः प्रश्नः, महाकवि भोजराजस्य शृङ्गारप्रकाशः अलङ्कारशास्त्रे अद्वितीया कृतिः वर्तते। भरतमुनिना अष्टौ रसाः प्रतिपादिताः, किन्तु भोजराजेन शृङ्गारः एव एकः मुख्यः रसः इति स्वीकृतः। सिद्धान्तस्यास्य पृष्ठे किं दार्शनिकं रहस्यं वर्तते?
सत्यं, भोजदेवस्य शृङ्गारप्रकाशः अलङ्कारशास्त्रे अद्वितीयः विद्यते। वस्तुतः भोजदेव एव अद्वितीयः। प्रायेण राजानः शस्त्रमेव धारयन्ति, न तु शास्त्रम्। एवं कवयः अथवा शास्त्रकाराः शास्त्रमेव धारयन्ति, न तु शस्त्रम्। किन्तु भोजदेवः तादृशः नृपः, तादृशः कविः, यः शस्त्रमपि धारयति शास्त्रमपि धारयति। भोजदेवस्य लेखन्या प्रणीतः शृङ्गारप्रकाशः वस्तुतः साहित्यवाङ्मयस्य आकरग्रन्थः विद्यते। तत्र अनेके नवीनाः सिद्धान्ताः भोजदेवेन स्वमतिना प्रतिपादिताः। प्रसिद्धस्तु रससिद्धान्त एव। साहित्यपरम्परायां विभावादिभिः अभिव्यक्तः स्थायीभाव एव रसपदेन व्यवह्रियते। भोजदेवस्य मते अहङ्कार एव रसः भवति। स च अहङ्कारः अन्तःकरणस्य, चित्तवृत्तिः नास्ति। परम्परायां चित्तवृत्तिरेव रसत्वेन स्वीकृता वर्तते। किन्तु भोजदेवेन चित्तवृत्तिं त्यक्त्वा अहङ्कारः एव रसरूपेण स्वीकृतः। सत्त्वात्मनां, ये सात्विकगुणसम्पन्नाः पुरुषाः भवन्ति, तेषां यः अहङ्कारः, स अहङ्कारः एव वस्तुतः रसः। किञ्च परम्परायाम् अष्टौ रसाः भवन्ति इति स्वीकृतं वर्तते। किन्तु भोजदेवस्य मते एकः एव रसः, स च शृङ्गारः एव। तत्र शृङ्गारः वस्तुतः रसः, स एव अहङ्कारः। सात्विकपुरुषाणां यः अहङ्कारः, स एव अहङ्कारः आस्वाद्यमानः सन् रसरूपेण व्यवह्रियते। अत्र वस्तुतः भोजदेवस्य सिद्धान्ताः अनेकानि दर्शनानि भित्तीकुर्वन्ति। भोजदेवेन ये केऽपि अपि सिद्धान्ताः प्रतिपादिताः, ते सर्वेपि सिद्धान्ताः किमपि दर्शनं मूलीकृत्य वर्तन्ते। तत्र रससिद्धान्तः यावत् शक्यं साङ्ख्यदर्शनानुगुणं वर्तते, यतोहि तत्र साङ्ख्यस्य या अहङ्कारस्य अभिव्यक्तिः एवम् अहङ्कारस्य पुरुषे प्रतिबिम्बनं, तदर्थं या प्रक्रिया प्रतिपादिता, सैव प्रक्रिया भोजदेवेनापि शृङ्गारप्रकाशे स्वीकृता वर्तते। अतः वक्तुं शक्यते यत् भोजदेवस्य मनसि साङ्ख्यदर्शनमेव आसीत् यदा सः अहङ्कारसिद्धान्तस्य प्रतिपादनं कुर्वन् आसीत्।
तत्र शृङ्गारप्रकाशे भोजराजेन शृङ्गारस्य वर्गीकरणं धर्मार्थकाममोक्षेषु विहितं, केवलं रतिभावः कथं जीवनस्य चतुर्वर्गफलप्राप्तौ समर्थो भवति?
भवत्या सम्यक् उक्तं। शृङ्गारप्रकाशकारस्य भोजदेवस्य मते शृङ्गारः चतुर्विधः भवति। धर्मशृङ्गारः, अर्थशृङ्गारः, कामशृङ्गारः, मोक्षशृङ्गारश्च। अयं रतिभावः कथं चतुर्वर्गफलप्राप्तौ समर्थो भवति इत्ययं प्रश्नांशोऽपि भवत्याः सम्यक् विद्यते। किन्तु अस्य प्रश्नस्य अंशद्वयेपि कश्चन भेदः अस्ति। स च भेदः सामान्यतः न प्रतीयते। मीमांसादर्शने मिथ्याप्रतीतिः न स्वीक्रियते। द्वयोः ज्ञानयोः सादृश्यवशात् अभेदप्रतीतिः भवति। वस्तुतः तत्र द्वयमपि ज्ञानं सत्यमेव, किन्तु ज्ञानयोः सादृश्यवशात् तत्र अभेदप्रतीतिः क्रियते भवति। तद्वत् अत्रापि शृङ्गारस्य धर्मादिभेदाः एवं रतिभावस्य चतुर्वर्गफलप्राप्तौ असामर्थ्यम् इति यदंशद्वयं वर्तते, तत्र शृङ्गारस्य रसस्य वा सामान्य लक्षणस्य सामान्य लक्षण रूपस्य सादृश्यात् अत्र अयम् प्रश्नः भवत्या विहितः, किन्तु वस्तुतः तथा नास्ति। भोजदेवस्य मते श्रृङ्गारः अहङ्काररूपः, एवं साहित्यपरम्परायां श्रृङ्गारः रतिरूपः वर्तते।
अन्ते च भामह आचार्यः अलङ्कारशास्त्रे प्रतिपादयति यत् सत्काव्येन धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च लभ्यते। आध्यात्मिके जीवने अपि विघ्नविदारणाय ज्ञानस्य वैचक्षण्यस्य च आवश्यकता वर्तते एव। भगवान् गणेशः विघ्नहर्ता भूत्वा कथं काव्यशास्त्रस्य आध्यात्मस्य च एतम् उद्देश्यं साधयति?
भारतीयपरम्परायां मङ्गलम् अत्यन्तं महत्त्वपूर्णं विद्यते। सामान्योऽपि भारतीयः जनः प्रत्येकं कर्मणः प्राक् मङ्गलं करोति, ततः परं तस्मिन् कर्मणि प्रवृत्तो भवति। अस्य मङ्गलस्य मूलं तथा विद्यते भारतीयपरम्परायां यत् जागरणात् आरभ्य शयनं यावत् अथवा शयनात् प्राक् मङ्गलं क्रियते एव, देवस्मरणं क्रियते एव। अस्य मङ्गलस्य का आवश्यकता, किमर्थम् इदं मङ्गलं कर्तव्यं, तत्सर्वं विश्वनाथ पञ्चानन भट्टाचार्येण स्वकीये ग्रन्थे न्यायसिद्धान्त मुक्तावल्याख्ये आदौ एव निरूपितं वर्तते। तत्र मङ्गलं कार्यस्य समाप्तिं प्रति कारणं भवति, उत विघ्नस्य विघाताय कारणं भवति, तत् वस्तुतः मङ्गलस्य कारणम् अथवा मङ्गलस्य कार्यं किम् अस्ति इति तत्र विचारितं वर्तते। तत्तत् प्राचीनाः ये आचार्याः सन्ति तेषां मते मङ्गलं कार्यसमाप्तिं प्रति अथवा तत्र प्रसङ्गानुरोधेन ग्रन्थसमाप्तिं प्रति कारणं भवति, किन्तु ये नवीनाः सन्ति आचार्याः तेषां मते मङ्गलं विघ्नविघातं प्रति कारणं भवति। तेन मङ्गलेन विघ्नविनाशः क्रियते, एवं विघ्नविनाशद्वारेण ग्रन्थस्य समाप्तिः भवति। एवं तत्र मङ्गलस्य अनेके उपायाः सन्ति, तत्र यथा भामहाचार्येण प्रतिपादितं सत्काव्येन धर्मार्थकाममोक्षेषु कलासु च वैचक्षण्यं लभ्यते। तत्र वस्तुतः प्रत्येकमपि स्तुतिः सत्काव्यमेव। देवः द्विविधः भवति, समुचितः इष्टश्च। तत्र गणेशः मङ्गलाय इष्टतमः देवः। परम्परायां किञ्च लोकजीवनेपि अस्माभिः द्रष्टुं शक्यते, यदा कदापि कार्यस्य आरम्भः क्रियते सर्वादौ गौरीगणेशयोः पूजा क्रियते। भोजदेवेन स्वयमेव शिवस्य स्तुतिं कृत्वा गणेशस्य स्तुतिः विहिता शृङ्गारप्रकाशे, यत्पादपङ्कजर्जः परिमार्जितेषु इत्यादिभिः। एवं स्वयं तुलसीदासेन श्रीरामचरितमानसस्य आरम्भे वन्दे वाणी विनायकौ इति प्रोक्तं विद्यते। अतः गणेशस्य विघ्नहर्तृत्वं सर्वतन्त्रसिद्धं विद्यते। आध्यात्मिकजीवने मङ्गलस्य आवश्यकता भवति। वस्तुतः मोक्षं प्रति पुण्यमपि बाधकं भवति, पापमपि बाधकं भवति। अतः पुण्यपापयोः विनाशे सति स्वरूपोपलब्धिः भवति। मङ्गलमपि कर्म विद्यते, एवं कर्मणः फलं भवति इत्यनेन मङ्गलमपि वस्तुतः मोक्षं प्रति बाधकमेव। किन्तु मङ्गलेन पुरुषस्य अन्तःकरणं शुद्धं भवति, एवं शुद्धे अन्तःकरणे सा स्वरूपोपलब्धिः भवितुं शक्नोति इति धिया मङ्गलम् आध्यात्मिके जीवने अथवा मोक्षं प्रति अपूर्वं साधनं विद्यते। एतेन मङ्गलं लोकजीवने तु कर्तव्यमेव, एवम् आध्यात्मिकं जीवनमपि आप्तुं मङ्गलं कर्तव्यमेव। तत्र मङ्गलेशः गणेशः सर्वदा विघ्नान् विदार्य स्वरूपोपलब्धिं जनयति अथवा ददाति, तदर्थं मङ्गलेशस्य गणेशस्य स्तुतिः संस्तुतिः सपर्या च सर्वदा प्रत्यहं कर्तव्या एव भवति।
स्वामूल्यसमयप्रदानाय ज्ञानदीपप्रज्वालितवते आकाशवाणीपक्षतः धन्यतावचांसि आविष्क्रियते।
संस्कृत संस्कृतजगति नूतनानाम् अनुसन्धानानाम् आयोजनानाम् उपलब्धीनां च परिचयाय समुपस्थितः संस्कृतदिग्दर्शन प्रभागः। एतत् प्रस्तौति अस्मदीया सहयोगिनी साधना शर्मा।
महाराष्ट्र शासनेन संस्कृतक्षेत्रे विशिष्ट योगदानाय 35 संस्कृत विदुषां महाकवि कालिदास संस्कृत साधना पुरस्कारेण सम्माननं क्रियते। महर्षि पाणिनि संस्कृत वैदिक विश्वविद्यालये राष्ट्रिय शिक्षा नीति 2020 अनुरूपं स्नातकोत्तर पाठ्यक्रम निर्माणार्थं राष्ट्रिय कार्यशाला आयोजिता।
अधुना बालवल्लरी प्रभागे मम सहयोगिन्या कामना झा इत्यनया श्रीगणेश सम्बद्धा कथा एका प्रस्तूयते।
कैलाश पर्वते भगवान शिवः माता पार्वती गणेशः कार्तिकेयः च निवसन्ति स्म। एकदा भगवता शिवेन उक्तं गणेशस्य कार्तिकेयस्य च मध्ये यः आदौ सम्पूर्णं जगत् परिक्रम्य आगमिष्यति सः एव श्रेष्ठः भविष्यति। तदा कार्तिकेयः स्वस्य मयूरस्य उपरि आरुह्य शीघ्रं जगतः परिक्रमां कर्तुं प्रस्थितवान्। गणेशस्य वाहनं तु मूषकः आसीत्। गणेशः चिन्तितवान्, मम वाहनं लघु अस्ति, अहं कथं शीघ्रं जगतः परिक्रमां करिष्यामि। ततः सः एकम् उपायम् अचिन्तयत्। गणेशः स्वस्य माता पितरौ अर्थात् शिवं पार्वतीं च त्रिवारं प्रदक्षिणी कृतवान्। ततः सः अवदत्, मम कृते माता च पिता च एव सम्पूर्णं जगत् स्तः, अतः अहं माता पितरोः त्रिवारं प्रदक्षिणां कृत्वा सम्पूर्णस्य जगतः परिक्रमां कृतवान्। गणेशस्य बुद्धिं दृष्ट्वा भगवान् शिवः माता पार्वती च अतीव प्रसन्नो अभवताम्। तस्मिन्नेव समये कार्तिकेयः अपि जगतः परिक्रमां कृत्वा आगतवान्। सः गणेशस्य बुद्धिं ज्ञात्वा प्रसन्नः अभवत्। अनेन ज्ञायते यत् माता पितरौ अस्माकं जीवनस्य आधारभूतौ भवतः, अतः वयं सदैव तयोः सम्मानम् आदरं च कुर्याम।
भारतस्य सांस्कृतिक वैविध्यं तस्य महती शक्तिः अस्ति। विभिन्नाः भाषाः विविधाः परम्पराः, किन्तु सर्वत्र एक एव भारतीय भावः एकता। अस्यैव भावस्य परिचायकः एकं भारतं श्रेष्ठं भारतम् इति प्रभागः। गणेश चतुर्थी महाराष्ट्रस्य सांस्कृतिक जीवने विशेष महत्वं वहति। अतः अद्य अस्मदीया सहयोगिनी मुदिता वेतालः संस्कृत भाषया सह मराठी भाषायाः कतिपयानि व्यवहारोपयोगी वाक्यानि भवद्भ्यः प्रस्तोष्यति।
प्रथमं वाक्यमस्ति, गणेश चतुर्थी भगवतः गणेशस्य जन्मोत्सवत्वेन परिपाल्यते। पहला वाक्य है, भगवान श्री गणेश के जन्म दिवस के अवसर पर गणेश चतुर्थी मनाई जाती है। मराठी में गणेश चतुर्थी गणपति बप्पांचा जन्मोत्सव आहे। द्वितीयं वाक्यमस्ति, एतत् पर्व समग्रे अपि भारते सोत्साहं सश्रद्धं च आचर्यते। दूसरा वाक्य है, यह पर्व संपूर्ण भारत में उत्साह और श्रद्धा के साथ मनाया जाता है। मराठी में हा पर्व संपूर्ण भारतात मोठ्या उत्साहाने साजरा केला जातो। तृतीयं वाक्यमस्ति, जनाः गृहेषु भगवतः गणेशस्य प्रतिमाः स्थापयन्ति। तीसरा वाक्य है, लोग घरों में श्री गणेश जी की प्रतिमाएं स्थापित करते हैं। मराठी में लोक घरा घरात गणपतीची मातीची मृणमय मूर्ति स्थापित करतात।
श्रोतारः संस्कृत साप्ताहिकी कार्यक्रम विषये भवतां विचाराः प्रतिक्रियाश्च अस्माकं कृते महत्वपूर्णाः सन्ति। भवन्तः स्वविचारान् अस्माकं अन्तर्जालीय सम्पर्क सूत्रे प्रेषयितुं शक्नुवन्ति, यच्च अस्ति nsdsanskrit@gmail.com इति। अधुना तु प्रस्थान वेलायाः समयः समुपस्थितः। पुनरपि नूतन विषयैः नवीन प्रस्तुतिभिः च सह पुनर्मिलामः। तावत् भवद्भ्यः सर्वेभ्यः गणेश चतुर्थी पर्वणः हार्दिक्यः शुभकामनाः। नमो नमः।